अथ द्वितीयः पादः बहुव्रीहौ प्रकृत्या पूर्वपदम् तत्पुरुषे तुल्यार्थ तृतीया सप्तम्युपमानाव्यय द्वितीया कृत्याः वर्णो वर्णेष्वनेते गाधलवणयोः प्रमाणे दायाद्यम् दायादे प्रतिबन्धिचिरकृच्छ्रयोः पदे पदेशे निवाते वा तत्राणे शारदेनार्तवे अध्वर्युकषाययोर्जातौ सदृशप्रतिरूपयोः सादृश्ये द्विगौ प्रमाणे गन्तव्यपण्यम् वाणिजे मात्रोपज्ञोपक्रमच्छायेन पुंसके सुखप्रिययोर्हिते प्रीतौ च स्वं स्वामिनि पत्या वैश्वर्ये न भूवाक्चिद्दिधिषु वा भुवनम् आशङ्काबाधने दीयस्सु सम्भावने पूर्वे भूतपूर्वे सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये विस्पष्टादीनि गुणवचनेषु श्रज्यावमकन् पापवत्सुभावे कर्मधारये कुमारश्च आदिः प्रत्येनसि पूगेष्वन्यतरस्याम् इगन्तकालकपालभगालशरावेषु द्विगौ बह्वन्यतरस्याम् दिष्टिवितस्त्योश्च सप्तमी सिद्धशुष्कपक्वबन्धेष्वकाला परिप्रत्युपापा वर्ज्यमाना होरात्रावयवेषु राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु सङ्ख्या आचार्योपसर्जनश्चान्ते वासी कार्तकौजपादयश्च महान् व्रीह्यपराह्नगृष्टीश्वासजाबालभारभारतहैलिहिल रौरवप्रवृद्धेषु क्षुल्लकश्च वैश्वदेवे उष्ट्रस्सादिवाम्योः गौस्सादसादिसारथिषु कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारे वडवातैतिलकद्रूः पण्यकम्बलो दासीभाराणाम् च चतुर्थी तदर्थे अर्थे क्ते च कर्मधारये निष्ठा अहीने द्वितीया तृतीया कर्मणि गतिरनन्तरः तादौ च नितिकृत्यतौ तवैचान्तश्च युगपत् अनिगन्तोऽञ्चतौ वप्रत्यये न्यधी च ईषदन्यतरस्याम् हिरण्यपरिमाणम् धने प्रथमोचिरोपसम्पत्तौ कतरकतमौ कर्मधारये आर्यो ब्राह्मणकुमारयोः राजा च षष्ठी प्रत्येनसि क्ते नित्यार्थे ग्रामशिल्पिनि राजा च प्रशंसायाम् आदिरुदात्तः सप्तमी हारिणौ धर्म्ये हरणे युक्ते च विभाषाध्यक्षे पापञ्च शिल्पिनि गोत्रान्ते वासि मानवब्राह्मणेषु क्षेपे अङ्गानि मैरेये भक्ताख्यास्तदर्थेषु गोबिडालसिंहसैन्धवेषूपमाने अकेजीविकार्थे प्राचां क्रीडायाम् अनिनियुक्ते शिल्पिनि चाक्रियः संज्ञायाञ्च गोतन्तियवं पाले निनि उपमानं शब्दार्थप्रकृतावेव युक्तारोह्यादयश्च दीर्घकाशतुषभ्राष्ट्रवटञ्जे अन्त्यात् पूर्वं बह्वचः ग्रामे निवसन्तः घोषादिषु च छात्र्यादयशालायां प्रस्थे वृद्धमकर्क्यादीनां मालादीनाञ्च अमहन्नवं नगरेऽनुदीचाम् अर्मे चावर्णं द्व्यच्त्र्यच् न भूताधिकसञ्जीवमद्राश्मकज्जलम् अन्तः सर्वं गुणकार्त्न्ये संज्ञायां गिरिनिकाययोः कुमार्यां वयसि उदके केवले द्विगौ क्रतौ सभायां नपुंसके पुरे प्राचाम् अरिष्टगौडपूर्वे च नहास्ति न फलकमार्देयाः कुसूलकूपकुम्भशालम्बिले दिक्शब्दाग्रामजनपदाख्यानचानराटेषु आचार्योपसर्जनान्ते वासिनि उत्तरपदवृद्धौ सर्वं च बहुव्रीहौ विश्वं संज्ञायाम् उदराश्वेषुषु क्षेपे नदीबन्धुनि निष्ठोपसर्गपूर्वमन्यतरस्या उत्तरपदादिः कर्णोवर्णलक्षणात् संज्ञौपम्ययोश्च कण्ठपृष्ठग्रीवाजङ्घं च शृङ्गमवस्थायां च नयोजरमरमित्रमृताः सोर्मनसी अलोमोषसी क्रत्वादयश्च आद्युदात्तं व्यच्छन्दसि वीरवीर्यौ च कूलतीरतूलमूलशालाक्षसममव्ययी भावे कंसमन्थशूर्पपाय्यकाण्डं द्विगौ तत्पुरुषे शालायां नपुंसके कन्था च आदिश्चिहणादीनां चेलखेटकटुककाण्डं गर्हायां चीरमुपमानं पललसूपशाकं मिश्रे कूलसूदस्थलकर्षाः संज्ञायाम् अकर्मधारये राज्यम् वर्ग्यादयश्च पुत्रः पुंभ्यः नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः चूर्णादीन्यप्राणिषष्ठ्याः षट्चकाण्डादीनि कुण्डं वनम् प्रकृत्याभगालम् शितेर्नित्या बह्वज्बहुव्रीहावभसत् गतिकारकोपपदात्कृत् उभे वनस्पत्यादिषु युगपत् देवताद्वन्द्वे च नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु अन्तः थातघैक्ताजवित्रकाणाम् सूपमानात्क्तः संज्ञायामनाचितादीनाम् प्रवृद्धादीनाम् च कारकाद्दत्तश्रुतयोरेवाशिषि इत्थम् भूतेन कृतमिति च अनोभावकर्मवचनः मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः सप्तम्याः पुण्यम् ऊनार्थकलहम् तृतीयायाः मिश्रञ्चानुपसर्गमसन्धौ नयो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः ययतोश्चातदर्थे अच्कावशक्तौ आक्रोशे च संज्ञायाम् कृत्योकेष्णुच्चार्वादयश्च विभाषातृन्नन्नतीक्ष्णशुचिषु बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने सङ्ख्यायास्तनः विभाषाच्छन्दसि संज्ञायाम् मित्राजिनयोः व्यवायिनोऽन्तरम् मुखम् स्वाङ्गम् नाव्ययदिच्छब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः निष्ठोपमानादन्यतरस्याम् जातिकालसुखादिभ्यो नाच्छादनात्क्तो कृतमितप्रतिपन्नाः वा जाते नैसुभ्याम् कपि पूर्वम् ह्रस्वान्तेऽन्त्यात् पूर्वम् बहोर्नैवदुत्तरपदभूम्नि न गुणादयो वयवाः उपसर्गात् स्वाङ्गम् ध्रुवमपर्षु वनम् समासे अन्तः अन्तश्च ननि विभ्याम् परेरभितो भाविमण्डलम् प्रादस्वाङ्गम् संज्ञायाम् निरुदकादीनि च अभेर्मुखम् अपाच्च स्फिगपूतवीणाञ्जोध्वकुक्षिसीरनामनाम च अधेरुपरिस्थम् अनोरप्रधानकनीयसि पुरुषश्चान्वादिष्टः अतेरकृत्पदे नेरनिधाने प्रतेरंश्वादयस्तत्पुरुषे उपाद्यजिनमगौरादयः सोरवक्षेपणे विभाषोत्पुच्छे द्वित्रिभ्याम् पाद्दन्मूर्धसु बहुव्रीहौ सक्थम् चाक्रान्तात् परादिच्छन्दसि बहुलम् इति द्वितीयः पादः।